यमैच्छा ममनसासो यमागाद्यज्ञस्य विद्वान् वरुषश्च गत्वान् स नो यक्षद्देवता दायते एजान्निहिषत् सदन्तरः पूर्वा अस्मद अराधिहोता दिशदायते एजानभिप्रजाम् शिशुधिरा निहिख्यत यजा महैयज्ञजान् हन्त देवाङ् ईळा महा ईड्याङ् आज्येन साध्वेमगर्देववेदिन्न अद्य यज्ञस्य जिह्वामविदा बगुह्या स आजुरागात्सरभिरवसा न भद्रामगर्देवहोदिन्न अद्य तदद्य वाचः प्रथमम् मसे जजेनासुराम् अभिदेवा असाम ऊर्जाद उत यज्ञजासः पञ्चजना मम होत्रञ्जुषध्वम् पञ्चजना मम होत्रञ्जुषन्ताम् गोजाद उदये यज्ञजासः पृथिवेरः पार्थिवात्मात्मम् मसान्तरिक्षम् दिव्यात्मात्मस्मान् तन्तन् तन्वन् रजसा भानुमन्विहिज्योतिष्मदः पथो रक्षधिया कृतान् अनुल्पणम् वयदजोगपामपामनुर्भव जनजादये व्यञ्जनम् अक्षानः न ह्यतरोदसाम्या इष्कृणध्वम् रशना ओदविंशत अष्टावन्धुरम् महदाभितारथम् येन देवासो अनजन्नभिप्रियम् अश्मन्वदेरेजते सम्प्रबद्धमुत्तिष्ठत प्रदरदा सखायः अत्राजः भजे असन्नशे एवा शिवान् भजमुत्तरे माभिवाजान् त्वष्टा माजावेदपसामपस्तपो बिभ्रत्पात्रा देवपाना निषन्तमा शिशेते नूनम् वरषम् स्वाजसंज्ञेन वृश्चादेतशो ब्रह्मणस्पतेः सतो नूनम् कपजः संशिषे तपाशेभिर्याभिरमृता जदक्षथ विद्वांसः पदा गुह्या निकर्तनयेन देवासो अमृतत्वमा नशः गर्भे दोषामदधुरवत्समासञ्जपेच्छे न मनसोदजिह्वजा स विश्वाहा सुमना जोग्या अभिशशासनिर्वनते कार इज्जितिम्